यस्य महिमान हिमानमेति सत्त्वं महेश भगवन् मघवन् मुखेद्य उत्तिष्ठतिष्ठदमृतैः अमृतैरिगुप्तैः गीतागमैश्च पुरुधा पुरुधामशालिन् भक्तेषु जागृहि मुदा हि मुदारभावम् तल्पम् विधाय स विशेष विशेष हेतो यशेष एष सकलः सकलस्वगीतैः त्वम् जागृहि श्रितपते तपते नमस्ते दृष्ट्वा जनान् विविध कष्टवशान्दयालुः त्रयात्मा बभूव सकलार्तिहरोत्र दत्तः अत्रेर्मुनेः सुतपसो विफलम् च दातुम् बुद्ध्यस्वसत्त्वमिहयन् महिमानियत्तः आयात्यशेष विनुतोऽपि अवगाहनाय दत्तोऽधुनेति सुरसिन्धुरपेक्षते त्वाम् क्षेत्रे तथैव गुरुसंज्ञकयेत्य सिद्धाः तस्तुस्तवाच मननेश विनोदयात् प्राक् सन्ध्यामुपासितुम् अजोऽप्यधुना गमिष्यति आकाङ्क्षते कृतिजन प्रतिवीक्षते त्वाम् कृष्णातटेऽपि नरसिंहसुवाटिकायाम् सारार्थिक कृतिजन प्रतिवीक्षते त्वाम् गान्धर्वसंज्ञकपुरे विसुभाविकास्ते ध्यानात्तमत्र भगवान् समुपैष्यतीति मत्वास्तुराचरित संनियराप्लवाध्या उत्तिष्ठदेव भगवन् नत एव शीघ्रम् खगगणान् सुचिरम् प्रसुप्तान् उत्पादयत्यरुणका अधिरुह्य तूषाः काषाय वस्त्रमपि धानम् अपावृणूध्य अन्ताक्ष्य अग्रजोऽयम् अवलोकयतम् पुरस्तात् शाटीनि भाव्रपटलानि सवेन्द्रकाष्ठा भागम् यतीन्द्रगुरुधुर्गरुडाग्रजोतः अस्माभिरीश विधितो श्रुतितोऽयमेवम् चन्द्रोऽपि ते मुखरुचिम् चिरगाम् जगारि तिष्ठति कार्तवीर्यः प्रह्लादयेश ಯದುರೇಶಮದಾಲಸಾಜಃ ದ್ರಷ್ಟು ಕಾಮಯಿತರೆ ಮುನಯೋಪಿ ಚಾದಂ ಉತ್ತಿಷ್ಟ ದರ್ಶಯ ನಿಜಂ ಸುಮುಖಂ ಪ್ರಸೀದ. ಏವಂ ಪ್ರಬುದ್ಧ ಇವ ಸಂಸ್ಥವನಾದ ಭೂತ್ ಸಮಾಲಾಂ ಕಮಂಡಲು ಮತೋ ಡಮರುಂ ತ್ರಿಶೂಲಂ ಚಕ್ರಂ ಚ ಶಂಖಮುಪರಿ ಸ್ವಗರೈರ್ದದಾನು ನಿತ್ಯಂ ಸಮಾಮವತು ಭಾವಿತ ವಾಸುದೇವಃ.